पृष्ठ संख्या 37।
षष्ठः पाठः प्रेमलस्य प्रेमल्याश्च कथा। प्रस्तुत कहानी शिक्षाविद गिजू भाई, जिनका समय 1885 से 1939 है, की रचना पेमला पेमली की कहानी का अनुवाद है। गुजरात के भावनगर के विद्यालय में पढ़ाते हुए उन्होंने बाल शिक्षण के क्षेत्र में अनेक प्रयोग किए। लंबा समय गुजर जाने के बावजूद उनके विचार प्रासंगिक हैं। इस कहानी में एक महिला घरेलू कामों को पूरा करने की अपनी पारंपरिक भूमिका को वाक चातुर्य से बदलने की कोशिश करती है।
इस पाठ का उद्देश्य उपसर्ग और प्रत्ययों की जानकारी देना है। पाठ इस प्रकार है। एकः आसीत् प्रेमलः, एकाचासीत् प्रेमली। काष्ठच्छेदेन श्रान्तः प्रेमलः सायंकाले गृहमागच्छत्। प्रेमलीं चावदत्, प्रेमली, अद्य खलु भृशं श्रान्तोऽस्मि, मह्यं जलम् उष्णं कृत्वा देहि, अहं स्नात्वा तस्मिन् जले चरणौ स्थापयामि, तेन मम श्रान्तिः अपगमिष्यति। प्रेमली अवदत्, तवानुरोधं कथमहं अस्वीकुर्याम्? पश्य, तत्र हण्डी उपरि स्थापिता, ताम् अवतारय। प्रेमलः हण्डीमवातारयत्। ततः स अवदत्, अधुना किं करोमि? प्रेमली अवदत्, निकटे कूपः वर्तते, तत्र गत्वा जलं भृत्वा आनय। प्रेमलः घटे जलं सम्पूर्य आगच्छत्। पुनः प्रेमलीम् अपृच्छत्, इदानीं किम्? प्रेमली अवदत्, अधुना चुल्ल्यां काष्ठानि प्रज्वालय। प्रेमलः काष्ठानि प्रज्वाल्य अपृच्छत्, अग्रे किं करवाणि? प्रेमली अकथयत्, यावत् चुल्ली सम्यक् न ज्वलति तावत् भूत् कुरु। किमन्यत्? प्रेमलेन चुल्ली सम्यक् प्रज्वालिता, अथ च अपृच्छत्, अधुना किं करवाणि? प्रेमली अवदत्, घटात् हण्ड्यां जलं पूरय। ततः हण्डीं चुल्ल्यामुपरि स्थापय। पृष्ठसंख्या 38। प्रेमलः हण्डीं चुल्ल्याम् अस्थापयत्। किञ्चित् कालानन्तरं च पुनः प्रेमलीम् अपृच्छत्, इदानीं किं करवाणि? प्रेमली अवदत्, किमन्यत्? हण्डीम् अवतारय। हण्डीम् अवतार्य प्रेमलः पृच्छति, अधुना? प्रेमली वदति, अधुना हण्डीं स्नानगृहे स्थापय। प्रेमलः हण्डीं स्नानगृहे निधाय पृच्छति, अधुना? प्रेमली निरदिशत्, सम्प्रति स्नानं कुरु। प्रेमलः स्नात्वा अपृच्छत्, अधुना किं करणीयम्? प्रेमली अवदत्, इदानीं हण्डीं यथास्थानं निधेहि। प्रेमलः हण्डीं संस्थाप्य शरीरं हस्तेन संस्पृश्य अकथयत्, अरे, कीदृशं पुष्पमिव शरीरं लघु जातम्। यदि त्वं प्रतिदिनं एवमेव जलं उष्णं कृत्वा मह्यं ददासि, तर्हि कियत् शोभनं भवेत्? प्रेमली अवदत्, किमहं न इति कथयामि, परन्तु अत्र कस्य आलस्यम्? प्रेमलः अवदत्, आलस्यं तु ममैव, परम् अग्रे आलस्यं न करिष्यामि। प्रेमली अवदत्, अस्तु, सम्प्रति आवां भोजनं कुर्वः।